सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्ति। अद्य अस्य कर्मणि प्रयोगे अस्मद् युष्मत् शब्दौ सः सः मां पश्यति
पश्यति तेन अहं पश्यते
न न दृश्ये माता माम् आह्वयति
मातया
न मातया न
ओ मातरम्
हा हा मातरं द्वितीया विभक्ति
रकारविभक्ति
देन् वि विल् हेव् टु गो बेक् टु शब्दमञ्जरी
गिव् मी अ मिनिट्
यु डू वन् थिङ्ग् फस्ट् यु ओपन् रूपचन्द्रिका इफ् यु हेव् दट् बुक् ऋकारान्तशब्द
I have Mata here. It goes like Pita, right? Yeah. Oh, Matra.
Do one thing. All the Vibhaktis in Rikaranta, you go through that once.
पिता पितरौ पितरः हे पितः हे पितरौ हे पितरः पितरं पितरौ पितॄन् पित्रा पितृभ्यां पितृभिः पित्रे पितृभ्यां पितृभ्यः पितुः पितृभ्यां पितृभ्यः पितुः पित्रयोः पितॄणाम्
पित्रयोः नास्ति किल पित्रोः
पित्रोः पित्रोः सारि पित्रोः पितॄणां पितरि पित्रोः पितृषु
इदानीम् अत्र किमस्ति मातृशब्दः आल्मोस्ट् दे आर् आल्मोस्ट् सिमिलर् माता माम् आह्वयति मातृशब्दस्य तृतीया विभक्तिः
मात्रा अहम् आह्यते
न आहूये मात्रा अहम् आहूये अग्रे दुर्जनाः अस्मान् निन्दन्ति
दुर्जनैः अहं निन्द्यते
तत्र
ओ अस्मान् यू केन् यूस् अस्मान् इट्सेल्फ् नो दट् इस् द्वितीया विभक्ति So that will be vayam.
See, long back I told you, you should improve this sarvanama shabdas. If you ignore that, you find it difficult now.
Oh, believe me, Bhagini, I try to recall them every day, but still they are taking me hard time.
That's why you should frame sentences and keep it aside.
Okay.
In each vibhakti, for each of the sarvanama shabda, you should practice like that.
Then it will be vayam.
Hmm.
And because that is plural, then nindyate, nindyante?
The pratimas is nindanti. Nindyamahe. Nindanti is there, no? What happens is, durjanaha, durjanaihi, vayam, we are being scolded. Nindyamahe.
Nindati is not Atmanepadi, right?
Yes, of course. Then what will come here?
Nindya.
According to you.
Nindya.
That is Prathama Purusha. That is Prathama Purusha. Here we are being scolded.
Oh,
Uttama Purusha. Yeah.
That is always confusing. Yeah.
Saha avam upekshate.
Tena yuyam.
Avam.
Oh, avam. Oh, avam. It's avam itself because it is both pradhama and dvitiya vibhakti, right?
Mm.
Upekshyate is the word, kriyapadam.
Atra upe, avam is what? Dvivachanamva, bahuvachanamva.
Oh, dvivachanam. So I have to use dvivachanam.
Tena avam.
Upekshyate.
Upeksha, that is Prathama Purusha. Here, Uttama Purusha, you have to use.
Upekshyamahe, is it?
Devachanam.
Upekshyavahe.
Upekshyavahe. Okay.
Then, Taha. Tvam janati.
Tvam, okay.
Who knows you?
Tvaya. Tvaya.
Vayana. Vayana. Who knows you? By whom?
By whom? Tena. Tvam.
Tena.
What was the kriya padam? I forgot again.
Janati. Jnadhatu. Jnadhatu. Always go to the dhatu. When this karmani happens.
Jnaye.
Tvam. When you say tvam, madhyama purusha. What will you use?
Tvam.
See? You cannot. You should be very alert.
Jnayase.
Samyak. Kena tvam jnayase. Kaha yushman preshayati.
Tabihi, right? Saha Yushman.
No. Only one person is one person is sending the
saha yushman what did you say
saha kaha yushman preshayati
okay saha yushman to send you
kena you
kena kena
yum
yushman ityukte बहुवचनं वा द्विवचनं वा
बहुवचनं
बहुवचनं तदा
युवां युवां केन युवां
युवाम् इस् मध्यम मध्यम द्विवचनं
द्विवचनं यूयम्
प्रेष्यद्वे
केन यूयं प्रेष्यद्वे सः युवां न जानाति
तेन युवां ज्ञायेथे
न यु न जानाति
न ज्ञायेथे
न ज्ञायेथे किमर्थम् ज्ञायेथे इति किमर्थमस्ति तत्र
मध्यमपुरुषद्विवचनं
अग्रे अत्र अस्तु जनाः माम् उपेक्षन्ते
जनैः अहम् उपेक्ष्ये शुद्धं वा
जनैः अहम् उपेक्ष्ये अग्रिम बालः माम् कथयति
बालेन अहं कथ्ये
अधिकारी माम् आदिशति
गो अहेड् मम
अधिकारी इत्यस्ति तस्य तृतीया विभक्तिः
अधिकारेण
माम् इत्यत्र परिवर्तनं किं भवति
अहम्
अधिकारिणा अहम्
अधिकारी अधिकार्या रैट्
न अधिकारिन् शब्दः
अधिकारिन् हरिशब्द ओके अधिकारिन् माम् इस् अहम् अधिकारिन् अहम्
न अधिकारिन् इति नास्ति महोदये तत्र अधिकारिन् इति प्रातिपदिकमस्ति अधिकारी अधिकारिणौ अधिकारिणः एवं प्रथमा विभक्तिरूपाणि
तृतीयरूपं वि हव् टु टेक् रैट्
अधिकारिणा इति तृतीया एकवचनं
गुरुणा हरिणा अधिकारिणा अधिकारिणा अहम् आदिश्यति न
आदिशति
आदिश्य अहं सो आदिश्ये
अहम् आदिश्ये अनुजः मां ताडयति
अनुजेन अहं ताडिष्ये ताडिष्ये ताड्ये ओ सारि जस्ट् दातु प्लस् ये
तत्र कथम् आगच्छति इत्युक्ते दृश्ये दृश्यावहे दृश्यामहे इति पिता माम् आह्वयति
पित्रा अहम् ahve.
Ahuye.
Ahuye. Yeah, you just said it. I forgot already.
Agre. Sevakah maam pranamati.
Sevakena aham
pranamye.
Pranamye. Vande Mataram, I remember, that's all. Vande Mataram is Vande. So Vande is Aham Vande. So Okilam Vande and all you had taught us, right? Aham will always
Jana, come with me. Yes, Janaha Asman Smarayanti.
Janaha Janena. Janahi, is it? Okay. Janaha, she said, no?
Janaha, I said.
Janahi, Asman, she said. So, Avam. What was the last word?
No, Asman will be Vayam.
Janaha, Asman, Smarayanti.
Smaryante, is it? No. Smaryamahe.
Aham smaryamahe.
Tatra smaryamahe nasti, because they are made to remember something or somebody. So, smaryamahe will come. Smaryanti ityasti kila. Smaryanti.
Like chalayati and...
Chalati, chalayati. Like that. To make somebody do something or to remember something. Janaihi vayam smaryamahe. Agre. Adhyapakaha asman bodhayanti.
Adhyapakaihi vayam bodhayamahe.
Bodhyamahe.
Oh, bodh is the dhatu and you just put yamahe. Okay. Bodhyamahe.
Bodhyamahe or bodhyamahe? Bodhyamahe. Chhatraha asman prichanti.
Chatrahi vayam pruchyamahe.
Chatrahi vayam pruchyamahe. Agre. Bandhavaha asman smaranti.
Bandhavaihi.
The caged animals, is it? Or the relatives?
Bandhavaha.
Bandhavaha, is it? Bandhavaihi. Asman, you said, right? So, Asman? Smarayati, you said, right?
No, that was earlier. Here, Smaranti.
Smaranti. So, Smaryamahe.
Smaryamahe.
It's like a Sudoku puzzle, you have to remember.
Dushtaha asman duri kurvanti.
Vayam. It is asman. Vayam. So vayam.
So asman.
What is duri? What?
Duri kurvanti.
Duri
kuriyamahe
kuriyamahe will not come kriyamahe
oh
duri will stay as it is kra dhatoho kriyamahe
it becomes kriyamahe here it becomes here
Shamitam, I came late, so this is Karmani Prayoga, which one?
Karmani Prayoga with Asmat Yushmat Shabda.
Okay, Asmat
Yushmat. It's very, very rare.
Oh, Asmat.
But once you practice this, your sentences become easier.
So, can you send me these sentences? I've been looking for these everywhere. Nowhere I can find them. And that is because...
Do you have this Prayoga Vistara book with you?
Which book?
Prayoga Vistara.
No, beginning.
Okay. I'll send the photo of this.
Yeah. Because we read these all these forms, but we never get to use them because you never... put that in the karma padam, these pronouns that much is what I found very rarely. I posted this in the WhatsApp. When will you use this? And Uma
you give two sentences. Yeah.
Yes, I saw actually, but I am not keeping well. I have been running around.
That's okay. so why when you brought this topic, it is very hard, but I have to conquer this somehow.
Yes, yes, yes. It is very important to learn this well. Agree. Vidyarthi Tvam Prachati.
That is Vidyarthina. Tvam.
When it is Tvam, what will be the form? When it is Tvam, it is automatically Madhyama Purusha. Shunakaha Tvam Sprashati.
Shunakena Tvam. What is it? Drishya Se.
Sprashati. It touches. Shunaka touches him, touches you, that is the sentence. No, Shunakaha Tvam Sprishati.
Shunakena Tvam Sprishyase,
right?
Shunakena Tvam Sprishyase. Janaha Tvam Ichanti.
Janaihi Tvam
Ichanti.
Ichyase.
Dhatuhu kaha tatra?
Tvam you said, right? No, ichyase. Ichyase, is it? Ishya.
Ishya.
Ishya becomes ichyase. Pritchya is still pritchyase only. That is what we were discussing the other day.
It becomes ishya.
So ichyase.
Ishyase.
Ishyase.
Suhrat Tvam Na Pashyati.
Suhrita is a what? Suhrita
is friend. Friend.
Dakarantaha Linga.
Suhrita.
Suhrita. Suhrita.
Suhrita.
Tvam. किं कः क्रियपदं
त्वं सुहृत् त्वां न पश्यति इट् डजन्ट् सी यु
दृश्यसे
सुहृता
त्वं सुहृदा
सुहृदा लैक् दा सुहृदा त्वं न पश्य
Always go to the dhatu. When the karmani prayoga happens, you must go to the dhatu.
Drush is the dhatu drush.
Okay.
Drushyate.
That's all. Subhruda, tvam, na, दृश्यते
न दृश्यते
देन् धर्मः त्वां रक्षति
धर्मेण रक्ष्यसे
रक्ष्यसे
रक्ष्यसे आरक्षकः त्वां गृह्णाति
आरक्षकेन त्वं
गृह्णसि
धातुः कः धातुः कः
गृह्णाति सो सो वि नीड् अगेन् मध्यम गृह्यते
आरक्षकेण त्वं गृह्यसे कर्मकरः युष्मान् वन्दते
नो सिङ्गुलर् वयं
कर्मकरे कर्मकरः युष्मान् वन्दते
युवां
युष्मान् इस् विच् वचन युष्मान् इस् विच् वचन
बहुवचन मध्यम
एकवचनं वा द्विवचनं वा बहुवचनं वा
बहुवचनं
बहुवचनम् अतः
यूयं युवां
कर्मकरेण यूयमेव कर्मकरेण यूयं वन्द वन्दधातु वन्दते इत्यस्ति
वन्दद्वे
वन्द्यद्वे
वन्द्यद्वे
वन्द्यद्वे दुष्टः युष्मान् पीडयति
दुष्टेन युवां पीडयद्वे
यूयं
पीड्यद्वे
तत्र युष्मान् तस्य परिवर्तनं किं भवति
यूयं
यूयं दुष्टेन यूयं पीड्यद्वे स्पर्धिनः युष्मान् पराजयन्ते
स्पर्धिना
स्पर्धिनः इति बहुवचनं किल
स्पर्धिनः बहुवचनं स्पर्धिनः
स्पर्धिः किं भवति तस्य
स्पर्धिनः स्पर्धिने स्पर्धिनेन रैट्
तत्र
कः अर्थः
स्पर्धिन् स्पर्धिन् इति
नकारान्तः स्पर्धिनः बहुवचनं
स्पर्धिभिः
स्पर्धिभिः
स्पर्धिभिः स्पर्धिनः युष्मान् पराजयन्ते
युष्मान् यूयं
यूयं पराजयद्वे पराजयद्वे
पराजयद्वे
तत्र परा इति उपसर्गः दट् विल् स्टे एस् इट् इस्
पराजयद्वे
तत्र पराजयः तत्र धातुः कः यु लीव् दिस् परा सैड्
जय जय
जी जये किल
जी जय
जी सो दट् धातु विल् कम् देर् परा
जीयते जीयद्वे
परा
जीयद्वे ओके
स्पर्धिभिः यूयं परा जीयद्वे सो यु मस्ट् आल्वेस् रिमेम्बर् दट् धातु
You have to memorize the dhatu.
yes. Sarve yushman prashamsanti.
Sarvena.
Sarvaihi.
Sarvena will not come. Sarvaihi.
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 Yuyam.
Yuyam. What was the dhatu?
Prashamsanti.
Prashamsanti. Tatra dhatuhu kaha.
Santiya.
Na.
Prashamsya. Prashya. Prashya.
Ha. Pra iti upasarga. Ha. Shams iti dhatuhu.
Shamsya. So okay.
Tamshadve.
Tamshadve.
Parishamshadve.
प्रशंस्य द्वे
तत्र सर्वैः यूयं प्रशस्य द्वे इति अग्रे शुनकः त्वां दशति
शुनकेन
त्वं दंस्यसे
वत् क्रियापदम् अगेन्
दंस्यति
दशति
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 इज़न्ट् इट् धम्स् द दाति
दुश्
तत्र तत्र दंशति दंश धातुः दशति दशतः दशन्ति इति प्रथमपुरुषस्य रूपाणि
दश्यद्वे दश्यसे
धातुः दंशदर्शने इति अस्ति दंशदर्शने इति तस्य रूपाणि दशति दशतः दशन्ति इति दशसि दशथः दशथ अतः तस्य एवं परिवर्तनम् एवं भवति दश्यसे इति
कः अर्थः दश्यसे
यु आर् बिटन् बै डाग् देन् विकासः माम् उपसर्पति
विकासेन अहम्
उपसर्ये उपसर्प्ये
वट् इस् लट्लकार रूपम्
उपसरति
उपसरति सो ऐ सेड् उपसर्ये
एकनिमिषं सर्पधातु एकनिमिषम् this I'll check and tell I am not able to recollect now maam upasarpate that vyakti sevakaah maam upasevante
sevakaih aham upasevye
अहं न सोपसेव्ये
सेवकै सेवकाः इत्यस्ति अतः
सेवकैः
ते अस्मान् अवगच्छन्ति
तैः वयं
तैः तैः Okay, I forgot what this is.
Asman will become?
Vayam.
Aham, Aham, Vayam? Is it Vayam?
Taihi Vayam.
Taihi Vayam. Avagachyasve.
तत्र अव इस् उपसर्ग
अवगम्यामहे
गम्यामहे
गम्यामहे अवगम्यामहे
अवगम्यामहे देन् सर्वे युष्मान् अभिनन्दन्ति
सर्वैः
यूयम्
अभिनन्द्यद्वे
कः प्रथमवाक्यं
तेन
तेन
तेन तेन
ओके
तेन यूयम् अभ्यन् द्वे
यूयम् इस् द्वे
सर्वे युष्मान् अभिनन्दन्ति दट्स् वाट् यु आर् डूइङ्ग् नो
अभिनन्दत्वे
नन्द्यद्वे
अभिनन्दत्वे अभि
अग्रे धर्मः मां नयति
धर्मेण अहं कः कः क्रियपदम् आनयति
नयति
नयति धात्विकः
सो इट् बिकम्स् नीये
नयति नय नय नास्ति नय दातु वा
नी नी दातु
नी दातु रैट्
धर्मम् हस् बीन् कैरीड् बाय
नी मे
धर्मः माम नयति सो इट् विल् बी धर्मेण माम विल् बिकम नयति नी धातुः
नी
धातुः नीये सो ईसि धेनुः त्वां जिघ्रति
And what was the word? I forgot.
Jigriyase.
Jig. Jig dhatu. Jigra.
Jig. Tatra. Dhatu.
Gra. Gra, I think. No? Smell.
Gra. Gra.
क्रियामहे न क्रियामहे
जिग्रियसे त्वम्
त्वम् इस् जिग्रियसे
जि विल् बि देर् धेनुना धेनुना त्वम् धेनुना वा तत्र धेनुशब्दस्य
धेनुना न
धेनुशब्दस्य रूपाणि वदन्तु
धेन्वा
धेनुवा
धेन्वा
धेन्वा त्वम्
धेन्वा त्वं जिग्रियसे
त्वं घ्राय जिग् तत्र घ्रायसे विल्कम् जिघ्रायसे जी विल् कीप् इट् एस् इट् इस् जिघ्रायसे
ग्री धातु कः
घ्रा धातु घ्रा गन्धोपादने
जिघ्रायसे मीन्स्
हियर् जिघ्रति is there, no? So that G, you keep it as it is.
Right, right. I'm just asking
It is to be treated like a upasarga, even though it is not a upasarga.
So what does it do to that verb, grayase?
What it adds, that's all. Pushti karanam, that's all.
Oh, okay, so smells really long, smells well. Ha.
Smells
strongly.
So here ghra dhatu asti ghrayase is the karmani prayoga. So this as the verb has g in jigrati, so you will add this
but bhagini in karmani prayoga like padatu becomes tiyate. But here it doesn't, this doesn't change, the gra remains like...
Yes.
Okay.
Griyate, it is not becoming, that's what you're saying, huh?
Yeah, that's what, it's an exception to that.
I think we will not add this ghrayate only. If I checked with this Ashtadhyayi, it is ghrayate only will come. G will not come there. Okay. Astu. Arakshakaha yushman praharanti.
Arakshakaihe kaihe yuyam.
Yuyam.
Arakshakaihe yuyam. Now, what was the verb again?
Praharanti.
Praharanti. So, praha is the visarga. Haranti.
Not visarga, upasarga.
Upasarga, I'm sorry. Upasarga. So, haranti.
Har becomes
yad. Har, is it har?
Rahir yadve.
What's the dhatu?
उद्योगिनः अस्मान् उपकुर्वन्ति
उद्योगिनेन
उद्योगिन् नकारः उद्योगी उद्योगिनौ उद्योगिनः
ज्योगिना तृतीया विभक्ति उद्योगिना उद्योगिनादिः
उद्योगिभिः
By the time we figured out, we forgot the rest of the sentence.
No, I forgot.
Trying to write out the sentence fast, but yeah, Showed on the screen, now we can. Now we have to listen.
Yes. Listening skills improve.
What was the sentence?
Udyoginah asman upakurvanti.
Asman will become vayam.
Upapurye.
Kri, it becomes kri.
Upakriya, kriye. Kurye, right? What is it?
Asman is plural. Kriyamahe. Upakriyamahe. Mahe, not vahe.
Kriyavahe.
No, mahe. Plural, bahuvachanam. Upakriyamahe.
Asman is vayam. Katamarvati, bahuvachanam.
Yep.
Udyogibihi, vayam. And the verb was?
Upakriyamahe.
Upakriyamahe. Mahe is.
Purvam katham kritam, whenever we got this karoti, purvanti, how did we convert that?
Kri dhatu.
In all the lakaras.
No, karoti.
How did we convert it to karmani?
Rasvakara, so it becomes ir, like in it, it becomes kri. It's kri a thing.
Durjanaha yushman tikante.
Durjanaha.
Durjanaihi,
is yuyam, and the verb was?
Tikante.
Tikante?
Tikante. It is commenting.
Oh, tikante. So it would be tikantve, no, tikantadve.
No.
Tika.
Tikiyadve. Akaranta becomes ika.
Tikiyadve.
Tik iti
dhatu. Then tikiyadve.
तत्र टीकृ गतौ इति धातुः सो इट् विल् बि टीक्यध्वे अनुजः माम् अनुदत्
अनुजेन
अहं
दत् धातु दत्त
दत् द धातुः नास्ति अनुदत् इत्युक्ते नुद् प्रेरणा टु मोटिवेट् आर् संथिङ्ग्
अनुद्ये
से वेन् यु से पिञ्जं नुदतु to get the electricity. If you switch on the light.
Mm.
So, pinjam nudatu, making it happen, making it work.
Empowering it?
Atra, atra lang lakara hasti kila, anudat. Tatra,
anudatta.
Langlakare katham bhavati. Anujena aham. Anujena aham. Langlakarasya karmani. Katham asit.
Anudyata.
Aham. Anudye.
But that is laklakara, but langlakara becomes anudyata. Right? Pachyate becomes apachyata. So anudye becomes anudyata.
Tatra, see when anudye will come.
Anudye will be in laklakara. Anudyata will become karmani lang.
See, there, tatra prathama purushaha, uttama purushaha ityasti kila. Langlakare, uttama purushasya rupani katham bhavanti. Pathadhatum svikritya vadatu. Apathyata, apathyetam, apathyanta. Apathyathaha, apathyetam, apathyadhyam. Apathye, apathyavahe, apathyamahe. Ityasti kila. Atra aham anujena aham anudat. Tatra anujena aham anudye. Welcome, no? Apathye. I am motivated.
But you gave...
Apathya, see, anudyata is for prathama purusha. Here, uttama purusha, no? Aham, aham.
Oh, yeah, okay.
Avagatam va?
Yeah.
Huh?
Yeah, avagat.
Margadashi maam anayat.
Margadarshina. What was your kriya pada?
Anayat.
Aham, no, so anyase.
Ni dhatu,
kila. Ni dhatu, it becomes niye.
Aniye. Aniye nasti, niye.
Niye is the latlakara karmani rupam and aniye.
Anayat iti कर्तरि प्रयोगे अस्ति. मार्गदर्शी माम् अनयत्. तदा मार्गदर्शिना अहं वेन् इट् कम्स् अहं देन् इट् विल् बि नीये.
नीये दट् इस् इन्
अहं नीये
लट् लकार रूपं, बट् इफ् यु वाण्ट् टु चेञ्ज् इट् टु लङ् लकार रूपं, लङ् कर्मणि.
That's what in see latlakaram kshamyatam langlakara roopam dattam asti margadarshi mam anayat langlakara roopam kila anayat nayati is latlakara नेष्यति लृट् लकार, नयतु लोट् लकार, अनयत् लङ् लकार. तस्य
कर्मणि लङ् लकार आर् वि जस्ट् चेञ्ज् इन् टु कर्मणि लट् लकार.
नो नो, वेन् इट् इस् इन् लङ् लकार ऐ विल् डु इट् इन् कर्मणि आल्सो इन् लङ् लकार ओन्लि.
Oh, okay, so karmani lang lakara rupam, I don't know. Aham na jana.
Ha, see, same, no? Ni dhatu vasthi. Ha, so, marga darshina aham aniye.
Oh, niye becomes aniye, that's all. Oh, ah. Okay, now I get it. Now I get it, okay.
अवगतं वा? शुड् वि स्टाप् दिस् इफ् यु आर् फैण्डिङ्ग् इट् डिफिकल्ट् वि विल् कण्टिन्यू इन् द नेक्स्ट्
क्लास्. लेट् मी रीड् अबौट् इट् अ लिटल् बिट् देन् इट् बिकम्स् अ लिटल् क्लियर्.
आई नीड् नो मोर् टैम् टु डैजेस्ट् इट्.
I think we will stop this here. We can try this Shiksha book for some time. What do you want to study in this Shiksha book?
We can go chapter by chapter, or if you have covered everything, then we have to take subjects.
Okay. Here also, in the first this thing, they have only some revision they have made. Recapitulation, Uttamaha Balakaha, Uttamaha Balika, Uttamam Pustakam, like that.
You can go to Sandhis if you want, if you think it will not confuse us. Because
see, one thing we will do, this thing, what is this? Shatru Pratyaya. That step by step they have given, that also we can cover.
Okay.
Then Sundays we will do, no problem. We will do first this Kshatra Pratyaya, Pullinga, Prathama Vibhakti, Tridapi.
Kridati, Shatru you are saying, right? Kridam, Kridanti, Kridam.
Namati.
Naman, Namanti, Namat.
Namanti is not done. Kridam, 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 Tau, Kridam,
Tau. Oh, you, for the same Pullinga, okay, okay. I thought Strilinga, okay. Kridam, Kridam, Tau, Kridam, Taha. So this is Kartari again. Shatru Pratyaya is present continuous for Kartari. Kartari Prayoga.
This Shatru Pratyaya denotes continuous tense, present continuous tense.
I'm sitting and eating, I'm sitting and watching TV and watching
Two things are happening together. Okay.
Why it is Shatru?
That we will have to ask Padini.
Enemy
can. And this Shatru Pratyaya is added only to Parasmai Padi roots.
Parasmai Padi.
Atmane Padi will take this Shanach Pratyaya. Vandamanaha, like that.
Oh, yeah.
I just remember Shanach is Ana. So all Anaha, Ana. Somehow.
So this Shatru Pratyaya also takes three forms, like Ekavachanam, Dvivachanam, Bahuvachanam, in all the lingas, Pullinga, Strilinga, and Napumsaka Linga. Okay? Then, Likhati Tasya, Likhan, Likhantau, Likhantaha. Pibati, Tasya Piban, Pibantau, Pibantaha. Khadati. Khadan, khadantau, khadan, like that. Huh? Avagatam va? Namati?
Namantau, namantaha.
Naman, namantau, namantaha.
Gacchati?
Gacchan, gacchantau, gacchantaha.
Pashyati?
Pashyan, pashyantau, pashyantaha.
Dhavati?
Dhavan, dhavantav,
dhavantav.
Milati?
Then,
milantav, milantav.
Yachati?
Yachan, yachantav, yachantav.
Yachha dhato ho?
Dadati.
Tatra dhato kaha yachha iti dhato va?
Dadati.
Tada?
Da is weird.
Yachan kyapi asti. Yachan, yachantau, yachantara. Smarati?
Smaran?
Smuru, smuru, smarani.
Smaran, smarantau, smarantau.
Vahati?
Vahati. Vahan.
Vahantau, vahantaha.
Padayati?
Padayan.
Padayantaha.
Nrityati?
Taha, kaha?
Nrityati, dancers.
Nrityan? Nrityantau, nrityantaha?
Bhajati?
Bhajan.
Dandayati?
Dandayan, dandayantau, dandayantaha.
Kupyati?
Kupyan, kupyantau, kupyantaha.
Pravishati?
Pravishan, pravishantau, pravishantaha. Pravishyan, shyan, pravishyan, pravishyantau, pravishyantaha.
Tatra yakarah kimartham? We are not doing karmani, no. Now we are in Shatru
Pravishan. So Pravishan.
Anusarati?
Anusaram, anusarantau, anusarantaha.
Alapati?
Alapan, alapantau, alapantaha.
Dayati?
Dayan, kaha ardaha
alapati, alapanam karoti.
Alapa, okay. Sangeeta, sangeete. Alapan, okay.
Gayati?
Gayan, gayantau, gayantaha.
Prachati?
Pruchan.
Pruchantau, pruchantaha.
Varnayati.
Varnayan, varnayantau, varnayantaha.
Parishilayati.
Parishilayan, parishilayantau, parishilayantaha.
भाययति मेक् सम्बडि फ्रैटन् गेट् फ्रैटन्ड्
भारयन् भारयन्तौ
भारयन्
भारयन्
नास्ति भय भय भाययन्
भाययन् भाययन्तौ भाययन्तः
महाप्राणं अस्ति न
महाप्राणमस्ति रकारः नास्ति प्रविशति अग्रे शिशुः धावति पतति
शिशुः
धावन् पतति
अनुजः आगच्छति वदति
अनुजः आगच्छन्
वदति
पिता पश्यति पृच्छति
पिता पश्यन्
पृच्छति
राघवः जिघ्रति तुष्यति
राघवः जिघ्रन्
तुष्यति
श्रीनिवासः वादयति नृत्यति
श्रीनिवासः वादयन् नृत्यति
रजकः क्षालयति पश्यति
रजकः क्षालयन्
पश्यति
बालकः इच्छति स्पृशति
बालकः इच्छन् पृशति
स्पृशति
स्पृशति
शिक्षकः पाठयति लिखति
शिक्षकः पाठयन्
पाठयन् लिखति
कृष्णः चोरयति चिन्तयति
चोरयन् चिन्तयति
इदानीं व्याघ्राः हरिणं पश्यन्ति शीघ्रं धावन्ति
व्याघ्राः हरिणं पश्यन्तः शीघ्रं धावन्ति
अर्चकाः मन्त्रं वदन्ति अर्चनां कुर्वन्ति
अर्चकाः मन्त्रं
वदन्तः वदन्तः
अर्चनां कुर्वन्ति
अर्चनां कुर्वन्ति
धीवराः जालं प्रसारयन्ति गीतं गायन्ति
धीवराः जालं
प्रसारयन्तः गीतं गायन्ति
बालकाः आसन्दे उपविशन्ति पुस्तकं स्वीकुर्वन्ति
बालकाः आसन्दे उपविशन्ति उपविशन्तः कः पुस्तकं
स्वीकुर्वन्ति
सम्यक्
तरुणाः धनं सम्पादयन्ति आनन्दम् अनुभवन्ति
सम्पादयन्तः आनन्दम् अनुभवन्ति
अध्यापकाः पाठं बोधयन्ति प्रश्नान् पृच्छन्ति
अध्यापकाः पाठं बोधयन्तः
प्रश्नं पृच्छन्ति
प्रश्नान्
पृच्छन्ति
अग्रे अत्र पुस्तकमस्ति वा शिक्षा
पुस्तकमस्ति
शिशुपालवधम् इत्यस्ति तत् पठितुं प्रयत्नं कुर्वन्ति वा
शिशुपालन् इस् देर् विच् पेज्
एकादश पृष्ठे
शिशुपालवधम् ओ किल्लिङ्ग् आफ़् शिशुपाल नारदस्य आगमनं
नारदस्य आगमनम् पठन्
नौ इन् दिस् स्टोरि वि शुड् आल्सो ट्रै टु ब्रेक् दट् ग्रामर् अण्ड् डू वाट् युर् आस्किङ्ग् चेञ्ज् कर्मणि टु कर्मणि
पठति पठामि भगवान् श्रीकृष्णः कृष्णुः भगवान् श्रीकृष्णुः
लोकरक्षणः
श्रीविष्णुः ओके सारि
कृष्ण विष्णु काम्बिनेशन्
भगवान् श्रीविष्णुः लोकरक्षणाय कृष्णावतारं गृहीतवान् सः वसुदेवस्य पुत्रो जातः द्वारकायाश्च नृपः अभवत् कदाचित् श्रीकृष्णं द्रष्टुं नारदमहर्षिः द्वारकाम् आगतवान् कृष्णः नारदं पूजितवान् योगक्षेमं च अपृच्छत् नारदमुनिः एवम् उक्तवान् कृष्ण भवान् सर्वं जानाति सर्वज्ञो हि भवान् तदापि देवेन्द्रस्य सन्देशं सन्देशं गृहीत्वा आगतौ स्मि कृपया श्रूयताम् इति
किम् अवगतं भगिनि What did you understand?
In order to for the benefit of the lokam the world Bhagavan Sri Vishnu Krishna he took up grihitavan took the incarnation of Sri Krishna he was Vasudeva's son was born from Vasudeva and he was the king of Dwarka okay then at one time Narada Mahamuni came in order to see Krishna Narada Muni came to Dwarka Agatavan Krishna
अतिथिसत्कारं
कृतवती कृतवान् योगक्षेमं च He also asked about how not his well the well-being of Narada Krishna asked him how he was doing Narada Muni he says Krishna, you know everything. You know everything. You are the all-knowing one.
Even though you are the sarvajna,
I have Devendrasya sandesha. I've come to give you the message from Devendra.
Kripaya shruyatam. Please listen to this. Now, you can do the Pada Vishleshana or whatever you want to do. Uma Bhagini. Bhagavan.
Bhagavan is this Pratama Vibhakti Pullinga Shabda, right? Bhagavan is the Visheshana.
Nakarantaha Pumlinga, I think.
Bhagavan is Nakarantaha Pullinga. Bhagavan Shabda.
Bhagavan,
I think.
Bhagavat Shabdaha va Bhagavan Shabdaha.
Bhagavat Shabdaha, I think, Pani Bhagini.
Yeah, you're right.
Trick question it is.
Bhagavan,
is it Bhagavan, Bhagavantav, Bhagavantaha?
No.
No, that is Bhavan, I think. But Bhagavan is Bhavat Shabdaha, yeah, Bhavan, Bhavantav. So Bhagavan is Bhagavantav, right?
Bhagavan, Bhagavantav, Bhagavantaha, I'm
Bhagavantav.
Thinking.
Bhagavantav. Bhavantav, okay, Bhagavantav. Okay, Bhagavantav,
yeah,
Bhavantaha.
I think it comes like Bhavan.
Lokarakshanaya is for, right? So this is Chaturthi.
This is Takaranta Pullinga Shabdha. Takaranta Pullinga Shabdha. Bhagavat Shabdha.
Takaranta Pullinga Bhagavat Shabdha.
Bhagavan, Bhagavantau, Bhagavantaha. Iti? प्रथमा विभक्ति रूपाण
ओके श्री विष्णु इज उकारांत पुल्लिंग श्री विष्णु शब्द लाइक गुरु विष्णु लोकरक्षणाय सो रामाय चतुर्थी विभक्ति राइट सो लोकरक्षण विल इट बी द प्रथमा विभक्ति
लोकरक्षणः शब्दः
So now I will remember Chaturthi is, you know, we pray Ramaya Namaha, Lokarakshanaya, Krishna Avatar. Here Sandhi is there, Savarna Dirga Sandhi. Krishnaha Avatar, Krishnaha and Avataram are joined, right? Krishna Avataram.
If you add Visarga, Sandhi will become
different. Visarga, it becomes, is it? Okay.
तव
तु प्रत्यय पुल्लिङ्गः Somebody wants to do the next one that also has
सः
महोदय
तत्शब्दस्य पुल्लिङ्ग एक प्रथमाविभक्ति एकवचनं वसुदेवस्य षष्टिविभक्ति एकवचनं वसुदेव पुल्लिङ्गं वसुदेवस्य पुत्रः जातः हियर् ऐ हेव् ए क्वश्चन् भगिनि जातः इस् ता प्रत्यय ता प्रत्यय यूजुअली वि यूस् इन् कर्मणि प्रयोग पास्ट् टेन्स् बट् ऐ हर्ड् आर् रेड् सम् प्लेस् दट् इट् केन् बि यूस् इन् कर्तरि प्रयोग बिकास् इट्स् एन् एक्सेप्शन् टु द रूल् इस् दट् ट्रू
कर्म लैक् दट् ऐ हेड् आस् दिस् क्वश्चन् आल्सो सामृता लैक् दट् इन्दुमती सामृता So, Jataha,
jatah is kriya pada no
yeah kriya pada
mm-hmm.
it is not ta pratyaya
no
Oh, I am thinking that this is Tapratya.
But Tataha is different here, I think. Jataha is not...
Isn't it Jataha, Jata, Jatam?
No.
Jataha. Yeah.
Yeah, it is true. Dattaha, Datta, Dattam. But this is because it is Akarmak Kriya. Somebody told me Haripriya Bhagini. Because in that Akarmak Kriya, we can use it in Kartari or Karmani. Like patita, patitaha, it fell.
Tatra, we will do this discussion in the next class, huh?
Okay.
I need to prepare this properly and then explain.
Thank
you. Agre, agrimam pathatu. Here, putra jataha is there. Satra sandhihi asti.
Putraha jataha. द्वारकायाश्च नृपः अभवत् द्वारकाया तृतीयविभक्ति एकवचनं विच्छत् विदुच्च विकम द्वारकायाश्च ओ नो आई एम रॉन्ग द्वारकायाः षष्ठी विभक्ति एकवचनम् च एंड ही नृपः प्रथमा विभक्ति एकवचनम् अभवत् लङ्लकार प्रथमपुरुष एकवचनं
द्वारकायाश्च तत्र सन्धिः अस्ति वा
विसर्गसन्धि अस्ति
विसर्गसन्धिः अग्रे कदाचित्
गो अहेड्
कदाचित् श्रीकृष्णं द्रष्टुं जय kadachit, so in order to, Krishnam is, Vidya Vipati Ekavachanam, Drashtum is Tumun Pratyaya, Narada Maharshihi, Pratama Vipati Ekavachanam, Ikarantaha Pumlingaha, Narada Maharshi Sabdaha, द्वारकां द्वितीयाविभक्ति एकवचनं द्वारकां आकारान्तः स्त्रीलिङ्गः द्वारका शब्दः आगतवान् इस् तवतु प्रत्यय तवतु
तवतु
आगतवान्
आगतवन्तौ आगतवन्तः अग्रे भगिनी नेक्स्ट्
वन्
मिनिट् आगतवान् नेक्स्ट् लैन् रैट्
कृष्णः
नारदं पूजितवान् कृष्णः विनो पुंस अकारान्त पुल्लिङ्गः कृष्णशब्दः प्रथमा विभक्ति कृष्णः नारदं नारदम् इस् नारदः इट् इस् आक्चुलि पुल्लिङ्गशब्दः सो नारदम् इस् द्वितीया विभक्ति पूजितवान् इस् लङ् लकार तव तु प्रत्यय कृष्णः नारदं पूजितवान् नौ इफ् यु हेव् टु रैट् दिस् इन् कर्मणि प्रयोग ऐ जस्ट् वाण्ट् टु आस्क् अ क्वश्चन् सो नारदं विदुकं नारदेन कृष्णं पूजितः
कृष्णः कृष्णः
नो कृष्णेन
कृष्णः नारदं पूजितवान् सो कृष्णा डिड् पूजा टु
बै कृष्णा नो नारदा डिड् पूजा टु कृष्णा रैट्
पूजितवान् इत्युक्ते अतिथिसत्कारं कृतवान्
नारद उद्बि नारदः नारद बाय कृष्ण रैट् कृष्णेन
नारदेन कृष्णेन नारदः पूजितः इस् वन् आप्शन् अदर् आप्शन् इस् अपूजित रैट् प्रत्यय बट् वी कैन् नाट् यूस् अपूजित नो वि आर् यूसिङ्ग् दिस् थिङ्ग् ओके
सो यु जस्ट् कीप् इट् द सेम् पूजितवान्
नो
पूजितः
So when does this apujita up that thing come? That is the only question.
That will come when lang lakara is used.
Oh, otherwise you cannot transform pujitavan to apujita.
Unless specifically asked, don't do it. It is easier, no?
Kridanta rupam, right?
Yes.
Bhuta kridanta rupam.
Kridanta. Krit anta kridanta.
Ah. Okay. Next one is like that, what I asked. Yoga kshemam cha aprichat. Yoga kshemam welfare, right? So, yoga, napum sakalinga shabda, right? Makaranta. अप्नपुंसकलिङ्ग योगक्षेमं योगक्षेम शब्द
नकारान्त योगक्षेमः एव
नकारान्त पुल्लिङ्गं ओके न योगक्षेमं च अपृच्छत् सो इफ् दिस् वास् कर्मणि अपृच्छत देन् हौ डु वि ट्रान्स्फार्म् दिस् यु केन् से योगक्षेमः च अपृच्छत इस् इट् ओके योगक्षेमं द्वितीया बिकम्स् प्रथमा सो अण्ड् इन् सः इस् सैलेण्ट् इयर् सो इट् विल् बि केन योगक्षेमः च अपृच्छत अपृच्छत समन् वाण्ट्स् टु कण्टिन्यू
नारदमुनिः इकारान्तः पुल्लिङ्गः शब्दः प्रथमाविभक्ति एकवचनम् एवं अवे उक्तवान् तव तु प्रत्यय पुल्लिङ्गः एकवचनं कृष्ण सम्बोधना प्रथमा भवान् भवत् शब्दस्य प्रथमाविभक्ति एकवचनं सर्वं सर्वशब्दस्य द्वितीयविभक्ति एकवचनं जानाति लट्लकार ज्ञाधातु प्रथमपुरुष एकवचनम् सर्वज्ञो हि भवान् अत्र विसर्गसन्धिः अस्ति सर्वज्ञः हि भवान् सर्वज्ञः प्रथमाविभक्ति एकवचनं हि अव्ययं भवान् भवत् शब्दस्य प्रथमाविभक्ति एकवचनम्
तथापि देवेन्द्रस्य सन्देशं गृहीत्वा सो तदा अपि सवर्णदीर्घ सन्ति तदा अपि देवेन्द्रस्य अकारान्तः पुंलिङ्गः देवेन्द्रशब्दः षष्ठीविभक्ति एकवचनं देवेन्द्रस्य देवेन्द्रयोः देवेन्द्राणां सन्देशं अकारान्तः पुंलिङ्गः सन्देशशब्दः द्वितीयाविभक्ति एकवचनं सन्देशं गृहीत्वा त्वा प्रत्यय
तत्र
आगतोऽस्मि अस्मि अस्मि इस् बै मी
तत्र गृहीत्वा इत्यत्र तव्य किल
तव्य इट्स् लैक् गत्वा गत्वा कृत्वा
त्वा प्रत्यय क्षम्यता
आगतोऽस्मि आगतः अस्मि आगतोऽस्मि अस्मि दकारान्तः त्रिलिङ्गेषु अस्मत् शब्दः अस्मि इस् बै मी बै इस् इस् तृतीया विभक्ति इस् इट् इस् आगतु इस् ब्राट् बै मी इस् अवर् इस् ऐ ब्रिङ्ग् इट् ऐ कम् वित् इट्
अस्मि इत्युक्ते अहम् अत्र आगतः
उत्तमपुरुष एकवचनम् अस्ति
अस्मि तत्र अस् धातुः अस् धातुः अस्मि
ऑलराइट राइट राइट दैट्स अ इट्स अ क्रियापदम इट्स नॉट ओके अस्मि राइट इज इज प्रथमाविभक्ति एकवचनम् उत्तमपुरुष राइट
प्रथमपुर उत्तमपुरुष एकवचनम् या
कृपया श्रूयताम् श्रूयतां तस्य वदतु
इट्स् आज्ञा आज्ञा लोट्लकार रैट् श्रूयतां लोट्लकार
लोट् शृणोतु शृणु एवम् आगच्छति किल श्रूयताम्
दिस् इस् कर्मणि प्रयोग कृपया इति तृतीया विभक्ति श्रूयताम् इस् कर्मणि प्रयोग श्रूयते श्रूयताम् इस् वाट् ऐ एम् थिंकिंग्
अग्रिमकक्षायां कुर्मः समयः अतीतः
ओके
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः